नमामि कारुण्यकरं भवस्य अहंकरं वामि सदा नमामि नमामि दातारं दीप्सितान नमामि सोमेशम उमेशम नमामि वेदत्रयलोचनं तं नमामि मूर्तित्रयवर्जितं तं नमामि पुण्यं सदसद्व्यातितं नमामि तं पापहरं नमामि नमामि विश्वस्य हिते नरत् नमामि रूपाणि बहूनि धत्ते यो विश्वगोप्ता सदसत्प्रणेत नमामि तं विश्वपतिं नमामि यज्ञेश्वरं।